नमस्सर्वेभ्यः. अद्य तिङन्तप्रक्रियायां द्वादशः पाठः. अक्टोबर् मासस्य पञ्चमः दिनाङ्कः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. सो गतार्गस्य किञ्चित् पुनरावर्तनं कुर्मः. तिङ् प्रत्ययाः ज्ञाताः, तेषां विभागोऽपि ज्ञातः. तत्रादौ तिप्तस्थि सिप्तस्थ विभ्वस्मस् तातां च था साथां ध्वम् इद् वहिमहिङ् इति सूत्रेण तिङ् प्रत्ययः विधीयन्ते. लकारस्य स्थाने लस्य इत्यधिकारे लकारस्य स्थाने एते प्रत्ययाः विधीयन्ते. सामान्यतः अष्टादशप्रत्ययाः. लः परस्मैपदम् इति सूत्रं, तेन सर्वेषां लादेशानां लकारस्य स्थाने ये ये आदेशाः, एते अष्टादश प्रमुखतया तिङ्प्रत्ययाः. ततः लटशत्रुशानचौ अप्रथमासमानाधिकरणे इति सूत्रेण लट्लकारस्य स्थाने शत्रुशानच् इति आदेशद्वयं, तथैव छन्दसि कानज्वा क्वसुश्च इत्यनेन लीट्लकारस्य स्थाने आदेशद्वयं, कानच् तथा क्वसु इति. एतेषां सर्वेषामपि लादेशानाम् आदौ सामान्यतया लः परस्मैपदम् इत्यनेन परस्मैपदसंज्ञा विधीयते. ततः तनानावात्मनेपदम् इत्यनेन तेषु लादेशेषु टङ् आन इत्येतेषाम् आत्मनेपदम् इति संज्ञा विधीयते. टङ् इति पुनः त्वम् इट् वहि महिम् एतेषां टङ् प्रत्ययानाम् आन इत्यनेन शानच् कानच् इति प्रत्ययौ गृह्येते. सो एते सर्वेपि आत्मनेपदप्रत्ययाः. इदं सूत्रद्वयं लः परस्मैपदं तनानामात्मनेपदम् इति द्वयमपि आकडारादेकासंज्ञा इति अधिकारे अस्ति. अतः एका एव संज्ञा. सो परस्मैपदस्य अपवादतया एतेषाम् आत्मनेपदसंज्ञा विधीयते. अतः शिष्टानां लादेशानाम् एतान् विहाय, तङ् आनौ विहाय अन्येषां लादेशानां परस्मैपदम् इति संज्ञा भवति लः परस्मैपदम् इति सूत्रेण. अतः तिप्तस्थि सिप्तस्थ मिप्वस्मस् इति नव, शत्रुक्वसु इति द्वौ परस्मैपदप्रत्ययाः. तातां झ थासाथां ध्वम् इड्वहिमहिं शानच् कानच् एते एकादश आत्मनेपदप्रत्ययाः इति प्रथमः विभागः परस्मैपदम् आत्मनेपदम्. ततः तिङस्त्रीणि त्रीणि प्रथममध्यम उत्तमाः. एतेषु नवसु त्रीणि त्रीणि प्रत्येकं त्रिकस्य प्रथम मध्यम उत्तम इति संज्ञा दीयते. अतः तिप्तस्थि इति परस्मैपदं प्रथमः प्रथमः इत्येव संज्ञा. प्रथमपुरुषः इति व्यवहारः अस्ति, किन्तु पुरुष इति शब्दः पाणिनिना न प्रयुक्तः, व्याकरणसम्प्रदाये अस्ति इत्यतः वयम् उपयुञ्ज्महे. तथैव आत्मनेपदे सा आतां च इति प्रथमः. सिप्तस्थ इति परस्मैपदं मध्यमः. था साथां ध्वम् इति आत्मनेपदं मध्यमः. मिप्वस्मस् इति परस्मैपदम् उत्तमः. इट्वहिमहिङ् इति आत्मनेपदम् उत्तमः. तिङस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः. पुनः तत्र तानि एकवचन द्विवचन बहुवचनान्येकषः. तानि नाम प्रथम मध्यम उत्तम इत्येतानि त्रिकाणि, ईच् ग्रूप् आफ् त्री, एकशः एकैकमपि एकवचन द्विवचन बहुवचनानि. अतः टिप् इति प्रथम परस्मैपदं प्रथमपुरुषः एकवचनम्. थस् इति परस्मैपदं मध्यमपुरुषः द्विवचनं, महिं आत्मनेपदं उत्तमपुरुषः बहुवचनम्. सो दीस् सूत्रास् दीस् फोर् सूत्रास् एस्टाब्लिश् अ यूनीक् ऐडेण्टिटि फार् ईच् आफ् द प्रत्यय. नौ फार् ईच् प्रत्यय यु हाव् अ यूनीक् नेम्. सो पदं पुरुषः वचनम् इति त्रेधा विभागः तिङ् प्रत्ययानां. पुनः विभक्तिश्च इति सूत्रेण सर्वेषामपि सुप्रत्ययानां तथा तिङ् प्रत्ययानां विभक्तिसंज्ञा अस्ति. अतः विभक्तिसंज्ञाम् उपयुज्य यानि कार्याणि उच्यन्ते यथा न विभक्तौ तु स्मः इति इत्संज्ञानिषेधः इत्यादीनि बहु विविधानि कार्याणि सन्ति. सर्वाणि कार्याणि सुप् प्रत्ययानामपि भवन्ति, तिङ् प्रत्ययानामपि भवन्ति. Any questions in this? Samshayah Santijet Prithyantam. मीनाक्षि
विभक्तिश्च विभक्ति स्थिगन्तप्रत्यया विभक्ति सन्ति वा?
विभक्तिः इति संज्ञा अस्ति सुप्रत्ययानां तिङ्प्रत्ययानाम् उभयेषामपि. यथा मया उक्तं पाणिनिना पुरुषः इति नोपयुज्यते. तिङ्सु प्रथमा मध्यम उत्तम विभक्तिः, सुप्सु प्रथम द्वितीय तृतीय इत्यादि विभक्तिः इत्येव व्यवहारः. अस्माभिः तु सुपां विभक्तिः इति तिङां पुरुषः इति व्यवहारः अस्ति, किन्तु तदपि अस्ति अङ्गीक्रियते एव. सो सर्वैः वैवय्याकरणैः तिङां पुरुषव्यवहारः अङ्गीक्रियते, किन्तु यदा कार्याणि क्रियन्ते तदा विभक्तिसंज्ञाम् उपयुज्य यानि यानि कार्याणि अष्टाध्याय्याम् उक्तानि तानि सर्वाणि तिङ्प्रत्ययानामपि भवन्ति. So it's very important to remember that these are also vibhaktis. Otherwise, I mean, we would say tas ityatra halantyam iti sakarase itsamya kutona bhavati iti prashnaha bhavati. So sarvatra tas, thas, vas, mas, sarvatra bhavet, kintu na bhavati, kutona bhavati na vibhaktau kusmaha. So there are two questions here again. Just a second. So yeah. So the question is the how. आकडारा एका संज्ञा, एस् अ सेट् बिट्वीन् लहपरस्मैपदम् अण्ड् तङ्गानाम् आत्मनेपदम् आकडारादेका संज्ञा इत्यनेन बाध्यबाधकभावः. अतः परस्मैपदम् आत्मनेपदम् इति आत्मनेपदसंज्ञा परस्मैपदसंज्ञायाः बाधिका इति उक्तम्. तथैव प्रथममध्यम उत्तमाः इति प्रथमा मध्यम उत्तमसंज्ञा आत्मनेपदसंज्ञां वा परस्मैपदसंज्ञां वा बाधते वा न बाधते वा इति प्रश्नः. अकडारादेका संज्ञा इस् अ स्पेशल् अधिकार. इट् इस् नाट् इट् इस् नाट् लैक् कम्पल्सरिलि दट् वन् थिङ्ग् हेस् ओन्ली वन् संज्ञा. वेर् एवर् देर् इस् अ क्लाश्, वेर् एवर् देर् आर् सिमिलर् युनो, वेर् एवर् देर् आर् कान्फ्लिक्टिङ्ग् संज्ञास्, इट् जस्ट् लिमिट्स् इन्स्टेड् आफ् सेयिङ्ग् बोत् आप्शनलि it limits the samya to one. Like you have pada samya and bha samya, so it can either be pada or bha. Similarly, you have parasmaipadam and atmanepadam, so it can either be parasmaipadam and atmanepadam. But it does allow for the samavesha, samya samavesha in many cases. Like you have the same thing, the other question asked was, vibhaktischa ityatracha iti kimartham. The chakara is one of the ways where he says it is a second samya, I mean, not just one. So these things are called the parasmaipadam or atmanepadam, and along with they are also called as vibhakti. Okay. So in some cases Panini indicates the samavesha with a chakara. In some cases the Bhashyakara specifies that it is not an apavada as to be taken under akadara deka samya, and it is just a samavesha with the earlier samya. So why did he put it here is a question. I mean, as I said, it need not be in the akadara deka samya because it is not overruling the other samyas. Atra tu prasangavashat atra etohi ting वस्तुतः लह परस्मैपदं तगानामात्मनेपदम् इत्येव आकडारादेका संज्ञा इत्यधिकारे अपेक्षते. अन्यत्तु बहिरपि भवितुं अर्हति. ओके, सो जस्ट प्रकरणवशात् अत्र स्थापितम् इत्येव वक्तव्यम् इति चिन्तयामि. विल् सी इफ् देर् आर् एनी अदर् things. I look up the Mahabhashya, but as far as I know, it is just because of the Prakarana that he has put these here and not for the application of Akadara Deka Samya. Okay. And yeah, so there is one more question related that if there are two Samyas, wouldn't already we know that when there is a conflict, wouldn't the grammarian know already that only one could apply? So why the need for the Adhikara? Said no, not necessarily. As we see, there are many cases where there can be more than one samya for the same thing, or optionally there it can have two samyas, etc. So it is you can say that tangana can be both parasmaipadam and atmanepadam. As we are saying, there is samya samavesha, one thing can have many different names. Okay, so the purpose of akadara deka samya is to limit the application of, that is to bring about that there is a conflict between samyas in some cases, because normally samyas do not have a conflict. Samyas is just naming. If you have a vidhi sutra, if two vidhis can operate in the same place, it is always an obvious conflict. But if it is a samya, it is not necessarily a conflict. Okay, because I mean, naming the same thing with different things will not matter. But there are cases where even in samyas you do find that there are conflicts, like parasmaipadam, atmanepadam and pada bha. We say that it is conflicting because it is under the eka samyadhikara. Okay, otherwise it would, I mean, we could have done them together, whether it is parasmaipadam, atmanepadam or pada and bha and so on. Okay, so that is exactly why the adhikara exists. But yeah, there are some sutras, not just in this adhikara, in many adhikaras, which I mean, need not be very strictly under that adhikara, but he puts it under it because of the prasanga. Okay. Sharma Mahodaya.
Yadi akarada deka samya vartate vibhaktischa sutre chakarasya granam redvam bhavati.
किमर्थम
चकार ग्रहण ग्रहणेन और अनदर संज्ञा इज बीइंग गिवन.
या दैट इज व्हाई चकारः सार्थकः. यदि आकराडादेका संज्ञा नास्ति,
यदि चकारः सार्थकः भवति आकराडादेका संज्ञा न वर्तते.
न अवगतं मया. न आकराडादेका संज्ञा इति अधिकारे यत्र यत्र सः संज्ञा समावेशम् इच्छति तत्र सकारम् उपयुङ्क्ते. यथा तत्पुरुषः द्विगुश्च इति वदति, तदपि तत्रैव अस्ति. तत्पुरुषः द्विगुश्च चकारेण
अपसाध्यते.
हा सत्यम्, तत् सत्यं. किन्तु हा तत्तु विभक्तिश्च इति सूत्रे एव भवति, किन्तु तिङस्त्रीणि त्रीणि प्रथममध्ये उत्तमः.
चकारग्रहणं आकराडदेकसंज्ञा वर्तननिषेधपूर्वकम्
सत्यम् तत् विभक्तिश्च इत्यत्र भवति किन्तु प्रश्नः सिंहस्त्रीणि त्रीणि प्रथम मध्यम उत्तमः इत्यत्र अथवा तान्येकवचन द्विवचन इत्यत्र तु स्पष्टमस्ति यतः पूर्वं यदुक्तं तदेव तानि इति निर्दिश्य उक्तम् इत्यतः तदेव इति ज्ञायते सिंहस्त्रीणि त्रीणि प्रथम मध्यम उत्तमः इति उक्तं तया संज्ञया आत्मनेपदसंज्ञा वा परस्मैपदसंज्ञा वा न बाध्यते वा इति प्रश्नः तत्र चकारग्रहणं नास्ति अथवा विशिष्य किमपि न उच्यते विभक्तिश्च इत्यत्र स्पष्टं चकारः तदर्थः एव संज्ञा समावेशार्थः एव सो हि डस् दट् इन् मेनी केसेस् वि सी एस् ए सेड् इन् तत्पुरुष एण्ड् द्विगु सो दट् समास इस् टु बि काल्ड् एस् बोत् तत्पुरुष एण्ड् द्विगु सो द्विगुश्च इति चकारेण एकसंज्ञाधिकारः बाध्यते इत्यादि उच्यते अत्र तु तदेव चिन्तनीयम् And we'll see if there can be a better explanation. Vasu, Vasu Devanji? Vasu.
Can you hear me? Namaste.
Namaste. Vadatu.
I'm wondering where you are.
Prashna has to.
There is.
Sorry?
Sutra 14103, Sopaha.
Yeah.
That absorbs
the meaning. Do you want to?
That absorbs the thing of three, three, three. Pratama vajya uttama taniye kavachana jiva vachana bhava vachana aniye
kashasa.
That happens from the vibhaktishtha. Right?
Yeah, I mean, say the next 103 is supaha. It says supaha. सूपः एकवचन द्विवचन बहु त्रिकाणि एकवचन द्विवचन बहुवचनानि एकशः एण्ड् विभक्तिश्च सो अगेन् बोत् सूपः एण्ड् तिङः दे आर् बोत् काल्ड् एस् विभक्ति सो चकारेण तयोः विभक्तिसंज्ञा अपि विधीयते ईच् आफ् देम् इस् आल्सो काल्ड् एस् विभक्ति Okay. There is one more question. Thing refers to both Parasmai and Atmane. Tingaha Trini Trini. Iti Vishishya Uktatvat Sutra Sarthakyat. So she says Ting Pratyahara refers to both Parasmai and Atmane. Yeah, I mean, the question is, can it overrule both Parasmai Pada and Atmane Pada? But then it would be pointless, because, I mean, when he says Tangana Atmane Padam, if the Prathama Madhyama Uttama will always overrule the Atmane Pada or the Parasmai Pada, there is no point in giving the Parasmai Pada Atmane Pada Samya at all, because they will never apply. Kadapi na bhavati yadi sarvatra tingastrini trini Prathama Madhyama Uttama ityanena परस्मै परस्य वा आत्मनेपदसंज्ञायाः वा बाधः इति अङ्गीक्रियते तर्हि कुत्रापि अनयोः प्रवृत्त्यवकाशः नास्ति अदर् देन् से शत्रुश अनच् अण्ड् क्वसु अण्ड् कानच् सो देर् इस् नो पायिण्ट् इन् सेयिङ्ग् लः परस्मैपदम् आर् टङ् आनौ आत्मनेपदम् सो दट् इट् सेल्फ् शोस् दट् इट् इस् अ समावेशम् सो देर् नो क्वश्चन् इसन्ट् इट् इम्पार्टेण्ट् टु लर्न् आल् द सूत्रास् विच् वि स्टडि बै हार्ट् Is there any method to do so? Vaihatting is Vaihatting the Ashtadhyayi, which is there are different kramas of Vaihatting the Ashtadhyayi. See, for grammar, it has always been considered essential to know the Ashtadhyayi. That is the easiest way of remembering all the rules of Vyakarana. Okay, why? I mean, for now, for us, it seems a daunting task to Vaihat those sutras, but to remember all the rules of grammar, there is no easier way other than the Ashtadhyayi. So it is the easiest, the shortest way to remember all the rules. So, yeah, I mean, Vaihatting the Ashtadhyayi is always yes. But if not, I mean, most of these sutras will become familiar with as we keep on practicing. It is very important at least to keep with the prakriya. As we keep doing the prakriya, you will be familiar with most of the sutras. We do it. So once in a while, if it does not right? That is always, when we don't know the Ashtadhyayi, we always run the risk that we will forget the sutras, which is always there. So, yes. Is it important? Definitely, yes. If by hitting the Ashtadhyayi is the, you know, if you want to really master the Vyakarana, it is essential. So, methods, there are many methods for the Ashtadhyayi. There was one nice mail which was there in one of the groups sometime back. I'll see if I can locate that and you know, put it in the site. So, which are the different possible ways of, different methods of hitting the Ashtadhyayi, which there are different ways which works for different people. Okay. So, we will probably see it at a different stage. Okay, so now, Tingam Vibhagaha Jnataha Agre Kutra Etesham Upayogaha Arthate Parasmaiparam Atmaneparam Ityasti Kutra Parasmaipara Pratyaha Bhaveyuhu Kutra Atmaneparam Pratyaha Kutra Prathama Purushasya Upayogaha Kutra Madhyamasya Kutra Uttamasya Evam Ekavachana Dvivachana Bahuvachana Nam Iti Sutra kim vachanam. So sutra masti. Sudaha anvartha samyaha eka vachanam divachanam bahuvachanam iti. Tathapi paninina uktam asti. It seems a very simplistic sutras, but they do exist. There is quite a bit of discussion which has gone behind the sutra. Okay. So we'll first see the sutras. Bahushu bahuvachanam yasti. So bahushu iti saptami bahuvachanam bahuvachanam iti. So, bahutve vivakshite bahuvachanam bhavati. Yatra bahutvam. So, bahu is anything as eka or the is bahu. So, bahutve vivakshite. When we intend to convey the multiplicity of whatever matter, we use the bahuvachana pratyaya. So, balaha pathanti. So, bala shabdat bahuvachana pratyaya. Just iti. So always remember bahuvachana, dvivachana, ekavachana, iti tisrahapi samyaha pratyayana. Okay. So it is a pratyaya. Bahuvachanam means a pratyaya. So a bahuvachana pratyaya will be added when the padartha is more than two. So just pratyaya. Bala nam bahutva vivakshayam. It shows that the pratipadika bala is many. Evam pathanti ityatra patadhatoho latlakarasya sthane bahuvachana pratyayaha ji tiptas ji visada ji. So tatra lakarathasya kartuhu bahutve vivakshite lakaraha laha karmanita bhavecha akarmakebhyaha ityachate kartru karma bhavaha lakarathaha atra kartari pratyayaha ataha lakarathaha karta kartuhu bahutvam bahuvachana pratyayena uchyate. Okay. Kartuhu bahutve vivakshite bahuvachana pratyaya ji pratyaya kriyate dvyekayohu dvivachana ekavachane dvi ekayohu saptami dvivachanam dvivachana ekavachane iti prathama dvivachanam dvitve vivakshite dvivachanam nama dvivachana pratyaya ekatve vivakshite ekavachana pratyayascha bhavati. Balau pathataha. Atra bala shabdat dvivachana pratyaha au. Ataha bala ityasya dviva dvitvam dyotayati. Pathataha ityatrapi kartari lakaraha. Kartrarthasya kartuhu lakarathasya kartuhu dvitve vivakshite dvivachana pratyaha tas pratyaha kriyate. Evam balaha pathati ityatrapi. So these seem redundant because we already know instinctively what is ekavachana, dvivachana, bahuvachana. Kintu yatha anyasam samyanam upayogaha tatha ekavachanam, dvivachanam, bahuvachanam iti samnya matram. Taha kutra upayogaha iti vaktavyam uktamasti paninina. So there are interesting discussions on this in the Mahabhashya. So he says ekavachanam samanyena vaktavyam. Says dvivachanam bahuvachanam. Dvitve vivakshite dvivachanam. Bahutve vivakshite bahuvachanam. Samanye ekavachanam. Iti bhashyakaraha. So when we don't know the number, or when there is no number per se, so even then we use ekavachanam. Say there are avyayas cha ityasti. Tatra ka samkhya? Samkhya eva nasti. संख्यायाः विवक्षायाम् असत्यामपि एकवचनम् उत्सर्गतः भविष्यति इति भाष्यसिद्धान्तः. इट्स् अ नैस् डिस्कशन्. सो हौ हि पुट्स् इट्. सो एकवचन इस् अ जनरल् नम्बर्, औत्सर्गिकसङ्ख्या. यत्र विशिष्य द्वित्वस्य वा बहुवचनस्य बहुत्वस्य वा विवक्षा नास्ति तत्र उत्सर्गतया एकवचनं प्रयुज्यते. एकत्वे अविवक्षिते अपि. सो एकवचन डस् नाट् मीन् इट् इस् वन्. द्विवचन आल्वेस् मीन्स् दट् द पदार्थ शुड् बि टु, और् बहुवचन मीन्स् द पदार्थ शुड् बि मेनि. बट् एकवचन डस् नाट् कम्पल्सरिली मीन् दट् देर् शुड् बि वन्. सो इवन् वेन् देर् इस् नो विवक्ष आफ् संख्या वि यूस् एकवचन. सामान्य एकवचनं उत्सर्गतः इति पुनः पुनः महाभाष्ये सः सिद्धान्तः उच्यते. सो वचनं तु सुलभं. कुत्र कः पुरुषः? सो वेर् डु वि यूस् द पुरुष? प्रथमः, मध्यमः, उत्तमः. युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः इति सूत्रम्. युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः इति षट् पदानि सन्ति. युष्मदि उपपदे समानाधिकरणे स्थानिनि चत्वारि पदानि सप्तमी एकवचने. अपि इत्यव्ययम् मध्यमः इति प्रथमाविभक्त्येकवचनम्. सो कः अर्थः? युष्मदि इत्यस्ति युष्मच्छब्दः इत्यर्थः. त्वं, युवां, यूयम् इत्यादिना युष्मद् शब्दः. उपपदे, उपपदं नाम किम्? समीपस्थं पदं, पदस्य समीपम् उपपदम् इति व्युत्पत्तिः. Samivastham padam. So the related word is Yushmad. When the word Yushmad is present close by or in the sentence. Samanadhikarane. It is yes, the Samanadhikarana shabdaha vaktavyahasit. Samanadhikaranam. Samanadhikarana. Two words are said to be Samanadhikarana when they indicate the same object. Okay. Yatra dvabhyam padabhyam. एक एव पदार्थः उच्यते तदा तान् ते पदे समानाधिकरणे इत्युच्यते. उदाहरणार्थं सः उन्नतः वृक्षः इति वाक्यमस्ति. सः इत्यनेन किमुच्यते? समीपस्थः कश्चन पदार्थः. कः पदार्थः? वृक्षपदार्थः. सो सः रेफर्स् टु द ट्री. उन्नतः इत्यनेन किमुच्यते? तेनापि वृक्ष एव उच्यते. वृक्षशब्देनापि वृक्ष एव उच्यते. सो आल् दीस् त्री वर्ड्स् आर् समानाधिकरण बिकास् दे रेफर् टु द सेम् आब्जेक्ट्. दे रेफर् टु डिफरेण्ट् अट्रिब्यूट्स् आफ् द सेम् आब्जेक्ट्. सः जस्ट् टेल्स् दट् इट् इस् समथिङ्ग् फार् अवे, नाट् नियर्. इफ् यु से एषः, इट् इण्डिकेट्स् दट् इट् इस् नियर्. उन्नतः, इट् इण्डिकेट्स् द प्रापर्टि आफ् दट् पदार्थ दट् इट् इस् टाल्. वृक्ष अगेन् इण्डिकेट्स् अ प्रापर्टि आफ् it is the padartha which belongs to the class called as vriksha. Vrikshatva jati vishishtah, unnatya vishishtah, kashchana padarthah. Kintu by all the three words, all three words directly indicate the same object. So we call all of them as samanadhikaranas. Okay. So samanadhikarana means there are two words which are referring to the same object, same padartha, whatever the padartha. Sthanini. Sthanini, sthani, sthanam and sthani are words which we already saw in the karya, right? So there is karya, karyi or sthani and nimittam. Okay? So karyi or sthani refers to that in which place you have done something. So sthani here refers to aprayujyamane. So it is there. I mean, it should have been there, but it is not there. It is not used. Aprayujyamane ityarthe atra sthani shabdasya prayogaha. Okay. So yushmadi upapade samanadhikarane sthanini madhyamaha. So we have madhyama purusha. Kaha sutrartha kaha? Samanadhikarane yushmad shabde upapade madhyamaha bhavati. We use madhyama purusha when there is yushmad shabda, which is upapada, that is which is used near the same thing. We are talking about thing, right? Tinganta. Okay. Samanadhikarana, and it is samanadhikarana with the thing. Tadrishe yushmachabde upapade prasakte aprayujyamane api madhyamah bhavati. So there are two parts. We will understand these separately. The first one says samanadhikarane युष्मच्छब्दे उपपदे मध्यमः त्वं पठसि इत्यस्ति. अत्र पठ धातोः लट् लकारः वर्तमाने लट् कर्त्रर्थकः लकारः लकारः कर्तारं बोधयति अतः तद्वाच्यः कर्ता. वाट् इस् द इण्डिकेटेड् बै द लकार इट् इस् कर्ता. तत् समानाधिकरणः त्वं शब्दः. त्वम् इत्यनेनापि कर्ता एव उच्यते. सो द लकार आल्सो टेल्स् कर्ता एण्ड् द युष्मत् शब्द आल्सो इण्डिकेट्स् द कर्ता. देर्फोर् त्वम् इस् समानाधिकरण वित् द लकार एण्ड् त्वम् इस् यूस्ड् एस् द उपपद. समानाधिकरणे युष्मत् शब्दे उपपदे. So when a samanadhikarana yushmat shabda is present associated, upapada is present associated with the tinganta, latlakarasya sthane madhyama purushaha pratyayaha bhavati. So sip, thas, tha. So three are the madhyama purusha pratyayas. Tatra kartuhu ekatva vivakshayam. As we saw, dvyekayohu dvivachana ekavachane. Ekatva vivakshayam ekavachanaha sip pratyayaha bhavati. Okay. That is the first part. Yushmat Chabde Samanadhikarane Upapade. So Pathasi. Even if we just sell Pathasi, Tvam iti shabdasya abhave api Pathasi ityasya madhyama purushaha upayujyate. Katham Yushmat Chabde aprayujyamane atayeva sthanini. Yushmadi upapade samanadhikarane sthanini api. स्थानी नाम युष्मदर्थः तत्र अस्ति किन्तु युष्मच्छब्दः न प्रयुज्यते. तथापि तत्र युष्मच्छब्दे प्रयुज्यमाने अपि तदर्थसत्त्वे मध्यमपुरुषः भवति. ओके, सो दट् इस् वाट् वी मीन् बै युष्मदि उपपदे समानाधिकरणे. द फस्ट् पार्ट् इस् युष्मदि उपपदे समानाधिकरणे मध्यमः. ओके, वेन् दर् इस् युष्मच्छब्द which is the upapada and which is samanadhikarana with the lakara, there is madhyama purusha. Yushmadi upapade samanadhikarane sthanini api, even when it is not explicitly mentioned in the sentence, if it is sthani, means it has its place there. Okay? It belongs to that context. So sthanini aprayujyamane api madhyama purusha bhavati. So whether we use the yushmat chabda or not, as long as the artha, the yushmadartha is samanadhikarana with the lakara, we have madhyama purusha. Okay. So udaharanatham aham tvam pashyami ityasti. Tatra yushmat chabdha asti. Okay. Aham tvam pashyami yushmat chabdha asti upapadam asti. Kintu lakarathatra karta pashyami iti kartari lakaraha lakarathah karta. त्वां पश्यामि इत्यत्र युष्मच्छब्दार्थः कर्म. ओके, दट् युष्मच्छब्द हियर् इण्डिकेट्स् द आब्जेक्ट् वेर् एस् द लकार इण्डिकेट्स् द सब्जेक्ट् आर् द एजेण्ट्. सो सिन्स् इट् इस् नाट् समानाधिकरण अत्र मध्यमपुरुषः न भवति. ओके, यत्र समानाधिकरण्यं यत्र युष्मच्छब्देन लकारेण च समानः पदार्थः उच्यते तत्रैव मध्यमपुरुषः. Okay, so we use madhyama purusha only when there is samanadhikaranya between yushmat and lakara, not just if there is yushmat shabda in the sentence. Okay, like aham tvam pashyami yushmat shabda asti kimartham uttam madhyama purusha nasti athava sahatvam pashyati tetrapi kimartham nasti iti samanadhikaranyam nasti yatra lakarasya yushmat shabdasya cha samanadhikaranyam tatraiva madhyama purushah. युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः. अत्र प्रश्नः अस्ति स्थानिन्यपि, हौ केन् अ वर्ड् दट् इस् नाट् प्रेसेण्ट् एण्ड् सो डस् नाट् एक्सिस्ट् इन् द सेण्टेन्स् हेव् अ पुरुष आर् वचन. सो वि आर् नाट् डूयिङ्ग् पुरुष वचन आन् द वर्ड् विच् इस् नाट् प्रेसेण्ट्. युष्मत् शब्दस्य न क्रियते किल, लकारस्यैव क्रियते. We are doing the purusha arvachana on the lakara which just exists. Pathasi ityatra patadhatoho latlakara hasti tasya sthane कः प्रत्ययः आदेशत्वेन करणीयः इति प्रश्नः. तत्र युष्मदर्थः अस्ति, तेन समानाधिकरण्यम् अस्ति इत्यतः मध्यमपुरुषे एकवचनप्रत्ययः क्रियते. युष्मदर्थः अस्ति, युष्मदर्थः अस्ति, पदं नास्ति. सो देर् आर् ऐ मीन् इट् इस् वेरि कामन् इन् द लाङ्ग्वेज् वेर् इम्प्लैड् मीनिङ्ग् आर् द इण्टेडेड् मीनिङ्ग् वि गेट् बै अध्याहार आर् द इम्प्लिकेशन्. सो युष्मदर्थः अस्ति, तदेव स्थानी इत्युक्ते तस्य प्रसङ्गः अस्ति तत्र. इट् इस् नाट् एनी वर्ड् विच् इस् नाट् प्रेसेण्ट् इन् द sentence is not considered. Sthani means tatra sasya sthanam tatra asti, nama prasangaha asti itteva artha. So it belongs to the context. So tena samanadhikarane madhyama purushaha, yushmat samanadhikarane madhyama purushaha, asmad yuttamaha iti agrimam sutram, asmadi uttamaha. So anuvrittihi, so if we look at it, पूर्वसूत्रमस्ति युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि इति. अतः युष्मदि इत्यस्य स्थाने अस्मदि, उपपदे समानाधिकरणे स्थानी अपि इति अनुवर्तते. सो इट्स् वेरि वन्स् यु अण्डर्स्टाण्ड् दट् सूत्र, दिस् सूत्र इस् आब्वियस्. सो समानाधिकरणे अस्मच्छब्दे उपपदे उत्तमः भवति. तादृशे अस्मच्छब्दे उपपदे प्रसक्ते अप्रयुज्यमाने अपि उत्तमः भवति. So when the asmadartha is present in a sentence, whether directly expressed by the asmat shabda or not expressed by the shabda, we use uttama purusha. Asmat shabdena samanadhikaranye uttama purushah bhavati. Aham pathami athava pathami. Ubhayatra lakarartha karta. Asmat shabdaha api kartaram bodhayati. Ataha ubhayoho samanadhikaranyamasti. अतः तत्र उत्तमपुरुषः एकवचनप्रत्ययः मि. पुनः अत्रापि समानाधिकरण्यम् अपेक्षते. सः मां पृष्टवान् अथवा सः मां पृच्छति इत्यस्ति चेत् तत्र माम् अस्मच्छब्दः अस्ति, किन्तु अस्मच्छब्देन लकारस्य समानाधिकरण्यं नास्ति. लकारः कर्तारं बोधयति, माम् इत्यत्र तु अस्मच्छब्दः कर्म बोधयति. सामानाधिकरण्याभावे उत्तमपुरुषः न भवति. So there's a question. So the purusha is decided by the verb. When you mean sthani? No, purusha is not decided by the verb. Purusha is still decided by the tvam, the yushmad artha. The yushmad is the word directly present in the sentence, or its meaning is implied. Okay, the uttama purusha or the matyam purusha is always determined by the words yushmad and asmad. So if the general condition is they should be there, they should be present, that they should be expressing it. But even when they are implied, that is when they are not directly expressed in the sentence, if they are implied also, we have the purusha. So purusha is always determined by asmat chabda and yushmat chabda. Yushmat chabdena samanadhikaranye uttama madhyama purushaha, asmat chabdena samanadhikaranye uttama purushaha. That is why bhavat shabdena samanadhikaranye madhyama purushaha na bhavati. Even though the meaning of bhavan, we use bhavan and tvam interchangeably, yushmaddi upapade eva madhyama purushaha, ata eva bhavadyoge na madhyamaha iti sutram na, that is not a sutra. Yushmaddi upapade madhyamaha, asmadi uttamaha, agrimam asti, sheshe prathamaha. Sheshe इति सप्तमैकवचनं, प्रथमः इति प्रथमैकवचनं, शेषः उक्तादन्यशेषः. आल्वेज द वर्ड शेष इंडिकेट्स समथिंग विच हैज नॉट बीन स्पेसिफाइड. ही स्पेसिफाइज समथिंग एंड देन से शेषः, एवरीथिंग एल्स. सो मध्यम उत्तम विषयादन्यः. मध्यम पुरुषः कुत्र भवति इति उक्तम्, उत्तम पुरुषः क्व भवति इति उक्तम्, तद्भिन्नः शेषः, शेषे प्रथमः. सो यत्र युष्मदस्मदी समानाधिकरणे उपपदे न स्तः वेर नीदर युष्मद् नार अस्मद् इज समानाधिकरण तत्र प्रथमपुरुषः भवति अस्मत् समानाधिकरणे उत्तमः शेषे प्रथमः एव्रीवेर एल्स वट् एवर द वर्ड इज वी हैव प्रथमपुरुष So can prathama also not be implied and left unsaid as was done for ekavachana it was not done for ekavachana by panini paninina visheshya uchyate mashakarena api na uchyate tina ekatre ekavachanam iti na uchyate samanye ekavachanam itteva vaktavyam tatrapi vaktavyam eva vidhim vina gnanam na bhavati tatrapi uchyate kintu ekatve ekavachanam iti na uchyate सामान्ये एकवचनम् इति उच्यते इति भाष्यकारः अत्र तदेव शेषे प्रथमः इत्यस्य स एव अर्थः यत्र युष्मच्छब्दः अस्मच्छब्दो वा समानाधिकरणः नास्ति तत्र प्रथमपुरुषः सः पठति अथवा पठति लकारार्थः कर्ता तत्र युष्मच्छब्दः अस्मच्छब्दो वा समानाधिकरणः नास्ति अहं पठामि अहम् इत्यनेन समानाधिकरण्यमस्ति अतः तत्र उत्तमपुरुषः एवं त्वं पठसि युष्मच्छब्देन समानाधिकरण्ये मध्यमपुरुषः सः पठति युष्मदस्मद्भिन्ने समानाधिकरणे समानाधिकरण्यं तु भवत्येव किन्तु युष्मत् समानाधिकरण्यं नास्ति अस्मत् समानाधिकरण्यं नास्ति चेत् प्रथमपुरुषः भवति अहं सः च किं भवति यदि अहम् अस्ति उत्तमपुरुषः सः अस्ति चेत् प्रथमपुरुषः अहं सः च किं कः पुरुषः उपयोक्तव्यः उत्तमपुरुषः किमर्थम् उत्तमपुरुषः goes with the first word saha aham cha so tathapi pathavah itteva tatra word order does not matter aham saha cha pathavah saha aham cha pathavah uttam purusheyo bhavati kimartham asmat samanaadhikaranyam asti sheshe prathamah yatra asmat samanaadhikaranyam vishvat samanaadhikaranyam va nasti tatraiva pratham purushah vihitah atra tu asmat samanaadhikaranyam asti अत एव शेषपदार्थ एतदेव शेषपदार्थस्य प्राधान्यं द्योतयति शेषः नाम उक्ताद् अन्यः यत्र अस्मद्वा युष्मद्वा नास्ति तत्रैव प्रथमपुरुषः उपयोक्तुं शक्यः अत्र तु अस्मत्समानाधिकरण्यम् अस्ति इत्यतः उत्तमपुरुष एव उपयोक्तव्यः अहं सः च पठावः इत्येव न तु पठतः त्वं सः च अत्रापि त्वं युष्मत्समानाधिकरण्यमस्ति अतः मध्यमपुरुषः भवेदेव त्वं सः च पठतः सः इति मध्यमपुरुषः, अहं त्वं च शर्महोदय
अहं त्वं वयम्
क्रियापदं किं भवेत्
अत्र अत्र उत्तमपुरुषद्विवचनं भवेत्
उत्तमपुरुषः एव किमर्थम् उत्तमपुरुषः एव भवेत् युष्मत्शब्दः अपि अस्ति समानाधिकरणः
उत्तमपुरुषः प्राधान्यम्
किमर्थं कथं प्राधान्यमिति कथम् उच्यते अस्माभिः
अत्र the person who is talking is myself so I predominate
yes
so aham
this artikam pradhanyam asti sutra shah katham sutre to yushma samanadhikarane madhyama purushah vihitah atma samanadhikarane uttama purushah vihitah
atra atra na na pratyak asmat samanyadhikaram na na युष्मसामानाधिकरणम्
उभयोः उभयोः समानाधिकरण्यम् अस्ति उभयोः उभाभ्यामपि कर्ता उच्यते
न उभाभ्यामपि कर्ता नो ऐ थिङ्क् हियर् इट् विल् बि द्विवचन उत्तमपुरुषद्विवचनमेव भवति
तत्र सत्यं दग्धमपि अङ्गीकरोमि उत्तमपुरुषद्विवचनमेव भवति तत्र का युक्तिः वक्तव्या इत्येव विप्रतिषेधे परं कार्यम् इत्यस्ति युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः अस्मद्युप उत्तमः उभयोः सत्त्वे परत्वात् अस्मद्युत्तमः इत्येव भवति आर्थिकं प्राधान्यम् अस्ति दट् इस् वेरि लाजिकल् यस् इट् इस् ट्रू दट् वेन् वि यूस् द उत्तम पुरुष इट् इस् आल्वेस् प्रिडामिनेण्ट् ओवर् द अदर्स् सूत्रशः अपि अस्ति विप्रतिषेधे परं कार्यम् इत्यतः यत्र उभयोः समानाधिकरणम् अस्ति युष्मच्छब्दस्य तथा अस्मच्छब्दस्य प्रयोगः तत्र उत्तमपुरुष एव भवति न तु मध्यमपुरुषः अन्ये केचन प्रश्नाः सन्ति बहवः उक्तवन्तः प्रतिषेधात् परं कार्यमिति अयं तु संज्ञा न आकरणादेका संज्ञा अयम् इदं संज्ञासूत्रं न उत्तमपुरुषः भवति इति उत्तमा इति संज्ञा न विधीयते अतः आकरणादेका संज्ञा इति वक्तुं न शक्यते विप्रतिषेधे परं कार्यम् इत्यते एव परं कार्यं भवति कश्चन प्रश्नः अस्ति जस्ट् अस् देर् इस् अ सर्टन् करेस्पाण्डेन्स् आफ् सुविभक्ति वित् कारक Is there a certain mapping of Purusha with some semantic object? Any samya? There is no mapping of Purusha. See, all the Purushas can be Karta or Karma. That is only Laha Karmani Cha Bhave Cha Karma Kephyaha. Lakara Ha Kartari Karmani Bhave. So, Lakaras, any Purusha can indicate only either the Karta or Karma. So, it can be any Purusha. So, Karta Uchyate Athava Karma Uchyate. केनापि पुरुषेण डिपेण्डिङ्ग् आन् द कान्टेक्स्ट् एनी आल् द पुरुषस् केन् इण्डिकेट् ऐ मीन् इन् आल् द पुरुषस् इट् विल् इण्डिकेट् ईदर् द कर्ता आर् कर्म आर् भाव आफ्कोर्स् नन् आफ् दीस् सो त्वम् अहं च तत्रापि उत्तमपुरुष एव अहं त्वं च त्वम् अहं च भेद एव नास्ति देर् इस् अब्सल्यूट्लि नो डिफरेन्स् त्वम् अहं च पठावः अहं त्वं च पठावः इत्येव Okay. So clear, if there is Tvam, it is compulsorily Madhyama. Tvam as in Yushmat Shabda. If it is Asmat Shabda, it is compulsorily Uttama. If there is neither of these, then only there is Prathama. If there is both, then it is Uttama. Ubhayoh Sattve Uttamaha, Ubhayoh Rabhave Prathamaha. Okay. So clear with the Purushas. अग्रिममस्ति कुत्र किं पदम् वचनं ज्ञातं पुरुषाः कुत्र प्रयोक्तव्याः इति ज्ञाताः. पदं कुत्र आत्मनेपदं प्रयुज्यते, कुत्र परस्मैपदं प्रयुज्यते इत्यत्र अनुदात्तञ्च आत्मनेपदम् इति सूत्रमस्ति प्रथमाध्याये तृतीयपादे द्वादशं सूत्रम्. अनुदात्तनितः इति पञ्चमी, आत्मनेपदम् इति प्रथम. अनुदात्तनितः अनुदात्तं च न च अनुदात्तङौ अनुदात्तङौ इतौ यस्य सः अनुदात्तञ्च. सो वाट् इस् अनुदात्तञ्च? अनुदात्तः ङ् ङकारश्च यत्र इत् संज्ञां प्राप्तुतः. वेर् एन् अनुदात्तस्वर इस् इत् आर् ङकार इस् इत्, तस्मात् आत्मनेपदप्रत्ययः भवति. अनुदात्तेतः नितश्च आत्मनेपदम्, स धातोः इति अध्याह्रियते. बिकास् द आत्मनेपद रेफर्स् टु तनानाम् आत्मनेपदम् तङ् तथा आन, ते सर्वेपि लादेशाः, लकारस्य स्थाने आदेशाः. लकारश्च धातोः विधीयते. All lakaras are added only to a dhatu. Dhatvadhikare lakarah vidhiyante. Atahatra dhatoho iti adhyahriyate. It is implied, not expressed. Sutre dhatoho iti padam nasti. Yathapi atmanepada pratyaha sarvada dhatoreva bhavati ityataha. Anudatte taha nitashta dhatoho atmanepadam syat. Yaha dhatuhu yasmin dhatu anudattasvaraha itsamyam prapnoti. Athava नकारः इत्संज्ञां प्राप्नोति, तस्मात् धातोः आत्मनेपदप्रत्ययाः भवन्ति. किमुदाहरणम्? एध वृद्धौ इत्यस्ति. एध इत्यत्र अनुनासिकः अकारः, अनुदात्तः उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा लोपः. एध इति अयम् अनुदात्तेत्, अनुदात्तः इत् यस्य सः अनुदात्तेत्, तस्मात् अस्मात् धातोः आत्मनेपदप्रत्ययाः क्रियन्ते. आत्मनेपदं नाम तङानौ, तङ् त आतां झ था साथां ध्वम् इट् वहि महि इति नव, शानच् कानच्. अतः अयं त प्रत्यये कृते एधते इति रूपम्, शानच् प्रत्यये कृते एधमानः इति रूपम्. अतः एध वृद्धौ यत्र धातौ अनुदात्तस्वरः इत्, तस्माद् धातोः आत्मनेपदप्रत्ययाः भवन्ति. तथैव ङित् यत्र धातौ ङकारः इत्, शीङ् स्वप्ने इति धातुः अस्ति. शीङ् इत्यत्र ङकारः इत्सम्यकः, हलन्त्यम् इत्यनेन ङकारस्य इत्सम्या. अयं धातुः ङित्, नितः धातोः आत्मनेपदप्रत्ययाः. अतः शीङ् स्वप्ने इत्यस्य शेते इति आत्मनेपद तप्रत्यये रूपम्, शयानः इति शानच् प्रत्यये रूपम्. सो वेर् एवर् अ धातु इस् अनुदात्तेत्, हेज़् एन् अनुदात्तस्वर एस् इत् आर् ङकार एस् इत्, वि एड् आत्मनेपदप्रत्ययस् टु दट् धातु. अनुदात्तनितः आत्मनेपदम्. इतोपि एकं सूत्रमस्ति भावकर्मणोः. भावकर्मणोः इति एकमेव पदं, सप्तमी द्विवचनम्, आत्मनेपदम् इति अनुवर्तते. भावे कर्मणि च धातोः आत्मनेपदं स्यात्. सर्वेषामपि धातूनां भावार्थे कर्मार्थे च आत्मनेपदप्रत्ययाः एव भवन्ति. सो आल् धातूस् इरेस्पेक्टिव् आफ् वाट् इस् देर् इट्स् विल् कम्पल्सरिलि हाव् आत्मनेपद इन् भावार्थ एण्ड् कर्मार्थ. यथा भूसत्तायाम् इत्यस्ति भवति, सः परस्मैपदी धातुः. किन्तु भावे, यतोहि अयम् अकर्मकः धातुः, अतः भावे लकारः, भूयते भूयमानम्, अयं त प्रत्ययः आत्मनेपदप्रत्ययः, शानच् अपि आत्मनेपदप्रत्ययः. एवं पठ व्यक्तायां वाचि इत्यस्ति. पठधातुः उदात्तेत् अथवा प्राकारः इत्सम्यकः किन्तु अनुदात्तः न. इट् इस् नाट् अनुदात्त, इट् इस् उदात्त. अत एव पठति इति परस्मैपदरूपाण्येव प्रयुज्यन्ते. किन्तु भावे क्षम्यतां कर्मणि, अयं सकर्मकः धातुः अतः कर्मणि लकारः. कर्मणि लकारस्य स्थाने आत्मनेपदप्रत्ययः. पठ्यते पठ्यमानम्. सर्वेभ्यः धातुभ्यः भावकर्मणोः आत्मनेपदप्रत्ययाः एव भवन्ति. सो इट् इस् ओन्ली इन् परस्मैपद, ओन्ली इन् कर्तरि प्रयोग दट् वी सी द डिफरेन्स् बिट्वीन् आत्मनेपदी एण्ड् परस्मैपदी धातुस्. भावे कर्मणि सर्वेभ्यः धातुभ्यः आत्मनेपदप्रत्ययाः एव भवन्ति. अनुदात्तङित आत्मनेपदं भावकर्मणोः. सो कर्तरि यदि धातुः अनुदात्तेत् अथवा ङित् तर्हि आत्मनेपदं भवति. अग्रिमं सूत्रमस्ति स्वरितङितः कर्त्रभिप्राये क्रियाफले. स्वरितङितः इति पञ्चमी, कर्त्रभिप्राये क्रियाफले इति सप्तमी, आत्मनेपदम् इति अनुवर्तते. सो स्वरितङित् इस् वेरि सिमिलर् टु अनुदात्तङित्. स्वरितं च ञ् च स्वरितञौ. स्वरितञौ इतौ यस्य सः स्वरितञित्. तस्मात् यस्मिन् धातौ स्वरितस्वरः इत्संज्ञां प्राप्नोति अथवा ञकारः, सवर्गपञ्चमः ञकारः इत्संज्ञां प्राप्नोति तस्माद् धातोः स्वरितेतः ञितः च धातोः आत्मनेपदं भवति कर्त्रभिप्राये क्रियाफले. यत्र क्रियाफलं कर्तारं गच्छति, वेर् द fruit of the action, whatever is the resultant of the action, is meant for the karta himself. Wherever the fruit of action is meant for karta himself, then there is atmanepada on a dhatu which is either swaritet or nit. Yatra dhatu hu swaritet bhavati athava nit bhavati tatra kartrabhipraye kriyaphale atmanepadam. So where the kriyaphala belongs to the karta himself, there we use atmanepada. Kaha arthaha? Dupachash pake iti dhatuh asti. Tatra du ityasya adir nitudavaha ityanena itsamya, shakarasya halantyam iti itsamya, akarasya upadeshe ajananasika iti itsamya. Ayam akaraha swaritaha. Okay. So ayam dhatuhu स्वरितेत् तर्हि किं भवति कर्तृभिप्राये क्रियाफले. यदा पत्नी मातृगृहं गच्छति तदा पतिः कष्टेन पचते. हु डस् हि कुक् फार् हिम्सेल्फ्. सो पचते इत्यत्र आत्मनेपदम्. आत्मनेपदं किं द्योतयति? क्रियायाः फलं. वाट् इस् द फल आफ् पाक? You get some food which is meant for himself. So pachate indicates that the kriya phala, the resultant or the fruit of the action, belongs or is meant for the karta himself. He is not cooking for others, he is cooking for himself. Okay, it need not be kashtena pachate. So if there are men who cook well, don't get me wrong, patihi pachate ityasti cet athava patni pachate. If the husband is not at home and the wife cooks for herself, then also it is pachate. So the context is, it's just cooking for oneself. So the food, the resultant of the paka kriya is food. Okay, so the food is meant for kartrabhipraye, whoever is the karta. पतिः पचते आर् एनिबडि एक्स् पचते, विच् मीन्स् द आत्मनेपद इण्डिकेट्स् दट् द कुकिङ्ग् इस् डन् फार् हिम्सेल्फ् आर् हर् सेल्फ्. कर्तृभिप्राये क्रियाफले आत्मनेपदम्. अध्ययनकाले परस्थले पचमाना अहं मातुः महीयस्थं ज्ञातवती. ऐ अण्डर्स्टुड् द वेल्यू आफ् मै मदर् वेन् ऐ हेड् टु कुक् फार् मैसेल्फ्. The meaning of cook for myself is implied by the Atmanepada. बिकॉज इट इज द सूत्र सेज कर्त्रभिप्राये क्रियाफले यत्र क्रियाफलं कर्तारं गच्छति तत्रैव आत्मनेपदम् अतः पचते पचमाना इत्युभयत्रापि आत्मनेपदं किं द्योतयति क्रियाफलं कर्तारं गच्छति सो द कुकिंग इज फॉर वन सेल्फ फॉर हूएवर इज कुकिंग तस्मिन् अर्थे आत्मनेपदं भवति यत्र धातुः स्वरितेत् तत्रैव नॉट एवरीवेयर ओके इफ जैसे पठति इत्यस्ति तत्र आत्मार्थमेव पठनम् इवन इफ आई रीड फॉर माय सेल्फ इट विल स्टिल बी पठति ओके सो यत्र धातुः स्वरितेत् अथवा ञित् दुकृञ् करणे इत्यस्ति अत्र कृञ् इत्यत्र ञकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा सो यत्र धातुः ञित् तत्रापि कर्तृभिप्राये क्रियाफले आत्मनेपदम् वयं देशं स्वच्छं कुर्महे सो वी क्लीन आवर नेशन स्वच्छ भारत सो कुर्महे सो हू विल बी बेनिफिटेड बाय द एक्शन ऑफ क्लीनिंग आवर सेल्स सो द एक्शन ऑफ क्लीनिंग इज फॉर आवर सेल्स सो कुर्महे इत्यत्र आत्मनेपदम् आत्मनेपद प्रत्ययः पापं कुर्वाणाः निश्चयेन तत्फलं भुञ्जते दोस हू कमिट सिंस will definitely reap its fruits. So kurvanaha, the phala of papa will be for the karta himself. So the atmanepada pratyayas indicate that the kriya phalam goes to the karta. Swarita nitaha, yatra dhatuhu swaritet athava nit, tatra kartrabhipraye kriya phale atmanepadam. Clear? अन्यदपि सूत्रमस्ति निचश्च निचः इति पञ्चमी एकवचनं च इत्यव्ययम् आत्मनेपदम् इत्यनुवर्तते कर्तृभिप्राये क्रियाफले इत्यपि अनुवर्तते स्वरितनितः कर्तृभिप्राये क्रियाफले द्विसप्ततितमं सूत्रं ततः कर्तृभिप्राये क्रियाफले इति अनुवर्तते अतः निच् इति प्रेरणार्थकः प्रत्ययः पठति पाठयति गच्छति गमयति बुध्यते बोधयति सो पाठयति बोधयति एट्सेट्रा दीज आर ऑल कॉल्ड द निच प्रत्यय दशमगणीयानां धातूनां एज वी विल सी लेटर धातूज आर डिवाइडेड इंटू सेवरल क्लासेस फॉर दोज धातूज विच बिलोंग टू द टेंथ गण कंपलसरीली देर इज ऑलवेज निच इति कश्चन प्रत्ययः प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषा अस्ति अतः निच् इत्यनेन निजन्तः इति उच्यते निजन्तात् धातोः आत्मनेपदं स्यात् कर्तृभिप्राये क्रियाफले यत्र धातुः निजन्तः भवति सो निच् इस् अ प्रत्यय विच् इस् यूजुवलि ऐडेण्टिफैड् बै द अय चोरयति कथयति गणयति पाठयति बोधयति सो दट् इस् नाट् द वे निच् इति प्रत्ययः तद्विषये अनन्तरं जानीमः सामान्यतः अय इत्यनेन ज्ञायते निच् प्रत्ययः सो तत्र कर्तृभिप्राये क्रियाफले आत्मनेपदं भवति किम् उदाहरणं चुरस्तेये इत्यस्ति सो दशमगणीयः धातुः इट् कम्पल्सरिलि गेट्स् निच् इन् स्वार्थ कृष्णः नवनीतं चोरयते कृष्ण स्टील्स् नवनीत for himself because he wants to eat kartrabhipraye kriya phale atmane padam mantha vilodane asti so ayam dhatuhu shuddha dhatuhu asti prerananarthe nich so in the causal we add nich mathnati manthayati mathnati is to churn manthayati is to make somebody churn krishnah yashodaya दधि मन्थयते हि मेक्स् यशोदा चर्न् द कर्ड्स् अगेन् फार् हिम्सेल्फ् बिकास् हि वाण्ट्स् टु ईट् द नवनीत उभयत्रापि कर्तृभिप्राये क्रियाफले आत्मनेपदम् निदन्तात् धातोः सो यत्र धातुः स्वरितेत् ञित् अथवा निजन्तः तत्र कर्तृभिप्राये क्रियाफले आत्मनेपदम् भवति शेषात् कर्तरि परस्मैपदम् सो अगेन् ही यूजस् शेष शेषात् इति पञ्चमी, कर्तरी इति सप्तमी एकवचनम्, परस्मैपदम् इति प्रथमा. स उक्तादन्यः शेषः. इफ् यु लुक् एट् द अष्टाध्यायि, अनुदात्तम् इत आत्मनेपदम् इति आरभ्यते. इत आरभ्य आत्मनेपदप्रकरणम् टिल् 1371, ततः स्वरितनितः कर्त्रभिप्राये क्रियाफले इत्यारभ्य विभाषोपपदेन प्रतीयमाने इति. सो आल् दीस् एक्चुलि गिव् आत्मनेपद. ततः शेषात्, सो फ्रम् 1312 टिल् 1377 हि डिफैन्ड् आत्मनेपद. ओके, शेषात् कर्तरि परस्मैपदम्. सो शेषः उक्तादन्यः, आत्मनेपद निमित्तानि उक्तानि. सो हि हेज़् डिफैन्ड् आल् द केसेस् वेर् वी हेव् आत्मनेपद. तद्भिन्नः शेषः, सो यत्र आत्मनेपद निमित्तं नास्ति, आत्मनेपद निमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्. सो वेर् एवर् अ धातु डस् नाट् हेव् द निमित्त फार् आत्मनेपद. कानि निमित्तानि अस्माभिः दृष्टानि? अनुदात्तनितः, अनुदात्तेत् अथवा ङित् भावकर्मणोः. सो कर्तरि सेस् इट् इस् नाट् इन् भावकर्मण. सो स्वरित ङित्, सो इफ् इट् इस् अनुदात्तेत् अथवा स्वरितेत्, if it has nakara or nyakara as it, we saw that there is atmanepada. So tad bhinna dhatu, for dhatus which do not have this nimitta, kartrarthe parasmai padam bhavati. Okay, so parasmai pada is given as shesha. Okay, so kim udaharanam, bhu iti dhatu asti, tatra kopi idvarnah nasti. So it is neither स्वरितनितः इत्यपि न भवति, अनुदात्तनितः इत्यपि न भवति, अतः सः परस्मैपदी. ओके, सो देर् इस् भवति इति परस्मैपदप्रत्ययः, भवन् इति शतृप्रत्ययः, सोऽपि परस्मैपदप्रत्ययः. उदात्तः इत् भवति चेदपि परस्मैपदप्रत्ययाः एव. ओके, अनुदात्तश्चेत् आत्मनेपदम्, स्वरितश्चेत् कर्तृभिप्राये क्रियाफले आत्मनेपदम्, उदात्तश्चेत् परस्मैपदम्. पठ व्यक्तायां वाचि, तत्र अकारः अनुनासिकः इत्संज्ञकः उदात्तः, अतः पठति पठन् इत्यत्र परस्मैपदप्रत्ययाः. ङकार ञकाराभ्यां भिन्नः इद्वर्णः अस्ति चेत् तदापि तस्माद्धातोः परस्मैपदप्रत्ययाः. यथा जृष् वयोहानौ इति धातुः अस्ति, षकारः इत्सम्यकः हलन्त्यम् इत्यनेन सः अपि परस्मैपदी. सो देर् आर् ओन्ली परस्मैपदप्रत्ययास्, जीर्यति जरन् इत्यादि. स्वरितेत् यत्र स्वरितस्वरः इत् भवति, तत्रापि कर्तृभिप्राये क्रियाफले इति यत्र नास्ति, यत्र क्रियाफलं कर्तारं नानुगच्छति, तत्र परस्मैपदम्. माता पचति, सो दिस् इस् आल्सो शेष. सिन्स् शी डस् नाट् कुक् फार् हर् सेल्फ्, इट् इस् नाट् कर्तृभिप्राय क्रियाफल. सो इन् दट् केस् वी डु नाट् हेव् आत्मनेपद. आत्मनेपदनिमित्तहीनात् धातोः परस्मैपदम्, बिकास् इट् इस् शेष वी हेव् परस्मैपद. माता पचति. एवं ङित् धातोः दुकृन्करणे, सेवकः गृहं शुद्धं करोति, हि क्लीन्स् द हौस् नाट् फार् हिम्सेल्फ् फार् द मास्टर्. सो तत्रापि परस्मैपदम्. निजन्ताद्धातोः, यथा कथ धातुः अस्ति, पितामही रामकथां कथयति, शी नरेट्स् द स्टोरी आफ् द आफ् राम फार् द चैल्ड्, से फार् द ग्राण्ड् चैल्ड्. सो तत्रापि क्रियाफलं कर्तारं न गच्छति, अतः परस्मैपदम्. गुरुः शिष्यान् संस्कृतं पाठयति, सो पाठयति, सो दिस् इस् आल्सो प्रेरणार्थकनिजन्त. अत्रापि कर्तृभिप्रायं क्रियाफलं नास्ति इत्यतः परस्मैपदम्. ओके, सो वेर् द इत् इस् देर् इस् नो इत्, इफ् उदात्त इस् इत्, इफ् एनी लेटर् अदर् देन् ङ आर् ञ इस् it, the dhatu is compulsorily parasmay padi. Okay. In case of swaritet, nit and nijanta, yadi kartrabhiprayam kriyaphalam tarhi atmanepada pratyayaha bhavanti, tadbhinne parasmay pada pratyayaha bhavanti. So, padavyavastha, bhave karmani, sarvebhyaha dhatubhyaha atmanepada pratyayaha bhavanti. Kartari kim bhavati, ye anudatte taha athava nit dhatavaha te atmanepadinaha. Please remember, atmanepadam iti pratyayaha, atmanepadi iti dhatuhu. Yasya atmanepadam bhavati, saha atmanepadi. So, atmane padi iti shabdaha dhatum nirdishati, atmane padam iti padam pratyayam nirdishati. So, ye dhatavaha anudatte taha athava nitaha, te nityam atmane padinaha. They are compulsorily atmane padis. Ye dhatavaha swarite taha nitaha athava nijantaha, te ubhaya padinaha. So they can have both atmanepada and parasmaipada pratyayas. Okay. So kartrabhipraye kriyaphale atmanepadam, tadbhinnasthale parasmaipadam. Anye dhatavaha. So other than these, all other dhatus are compulsorily parasmaipadis. Sarvada tebhyaha parasmaipada pratyayaha eva bhavanti. Okay. So pratyayas are only atmanepada, parasmaipada. So yesham niyatataya atmanepada pratyayaha bhavanti te atmanepadinaha dhatavaha, yesham niyatataya parasmaipada pratyayaha bhavanti te parasmaipadinaha dhatavaha, yesham ubhaya yogyata asti, those which can get both atmanepada and parasmaipada pratyayas are referred to as ubhaya padis. Tatra kartrabhipraye kriyaphale atmanepadam anyatra parasmaipadam iti Sautra Vyavastha. That is what the sutra says. But as we have seen in case of Lang Lakara, where we use Lang for Samanya Bhuta, even if it is not Anadyatata, Tatha Ubhaya Padeshu Api Sa Vyavastha Prayena Lupta. Today we do not see the strict, Kartavi Praya Kriyaphale Eva Atmane Padam, Tadvine Parasmai Padam, Iditu Prayahan Upayujyate. We don't use it. So even in literature, I am not sure. I mean, maybe somebody should take up a study to see where it was compulsorily used. If say Chorayati, so do we use Atmanepada if he is dealing for himself? Krishnaha Navanitam Chorayati Ityeva Prayogaha Sarvatra Prasiddhaha Asti. Okay. So Adhyatana Vyavaharetu Ubhaya Padishu Atmanepadasya Upayogaha Kartrami Praye Krinaphale Eva Iti Niyataraya Na Drishyate. We do not see it in today's Vyavahar. The sutra says, yes, kartravipraye kriyaphale atmanepadam. So where the kriyaphala goes only to the karta. Yatratu mata pachati sa swayam khadati anesham kutepi pachati. Tathapi tatra parasmai padam eva. So where others also take part in the fruit of action, tatra parasmai padam bhavati. Okay. So, because the main intended, this is not the karta himself. The main uddeshya of cooking is not for herself. So if she is cooking only for herself and then by chance somebody else also eats, then it might be atmanepada. Okay. So if the cooking is not done primarily with the intention for oneself, then it is parasmaipada. But as I said, if you ask me where it began to get lost, I don't know. I mean, I also have not studied literature from this point of view. Kutra niyatataya ubhayapadi vyavastha kiyat paryantam rakshita iti mayapi navalakshitam. I don't know if there have been studies, but it is definitely an interesting study because Panini states very clearly there are six sutras. So now, clear with these. So, some dhatus are purely atmanepadis. Whether the action is for themselves or for others, they are always atmanepadi. So, the question, is it for oneself or others, comes only if it is an ubhayapadi dhatu. If the dhatu is compulsorily atmanepadi, the question does not arise. If it is compulsorily parasmaipadi, then also the question question does not arise. In Ubhayapadis, there is a vyavastha given by the sutra. How much we follow it is a different question. So, clear with this? But as you have seen from the Excel, these are not the only sutras which define Atmanepada or Parasmaepada, right? So, as we saw, there are around 70 sutras which are there. So, ita arabhya, anudattam ita atmanepadam ityarabhya, as you see, atmanepadam ityanuvrattihi, sapta saptati tama sutra paryantam asti. Okay, till sutra number 77, he goes on with atmanepada. Tataha sheshat kartari parasmaepadam ityarabhyate, till 93. So, from 12 till 93, around 80 sutras are used to define padas. So, what is it? We have seen the major case where the simple dhatu, yatra dhatu asti tatra padavyavastha drishta. Bhave karmani sarvebhya atmanepadam. Ye dhatavaha anudatte taha nitaha te parasmaipadinaha. Svarite taha nitaha nijantascha ubhayapadinaha. Anye dhatavaha parasmaipadinaha. So, what does he do in the all the other sutras? We studied only 6 or 5 sutras. So, what are the other 75? Padavyatyayaha. So, we see that where the dhatu is, say, purely parasmaipadi or atmanepadi, the pada might change in certain cases. Okay. For example, in the presence of an upasarga, yatha ji jaye iti dhatu hosti, tatra kopi idvarnaha nasti, ataha sheshat kartari parasmaipadam ityanena parasmaipadam eva bhavati jayati. Kintu viparabhyam jehe iti sutramasti 1319 atmanepadam iti anuvartate yatra ji dhatoho vi iti upasargaha para iti upasargo vabhavati tatra atmanepadam vijayate parajayate virupam ji dhatoho parasmaipadi kintu vi iti upasargena yoge para iti upasargena yoge atmanepadam bhavati. So, pada vyatyaha drishyate. So, a majority of cases is where when you add an upasarga, the pada will change. Okay. So, those are many of the sutras. If you see the list, okay. So, you'll see that in many cases, you see starting parivyavebhya kriyaha, nervishaha, nivishate, parivyavebhya kriyaha, parikrinite, vikrinite, etc. Viparabhyam jehe, samavapravibhyasthaha, sam avapravi. So, pratishthate, even though tishthati is parasmaipadi, we say pratishthate, santishthate. So, there are many cases where an upasarga will change the pada attribute of the dhatu. Jnya avabodhane, iti asti, idvarnaha nasti, ataha ayam api parasmaipadi bhavet. Kintu, janati, janite, ityubhayathapi prayogahasti. Katham, anupasarga jnaha iti sutramasti. After svarita nitaha kartrabhipraye kriyaphale. He says, yatra anupasargat, yatra upasargaha nasti, tatra kartrabhipraye kriyaphale atmanepadam, tadbhinne varasmaipadam. So, the pure jnathatu is an ubhayapadi because of the sutra. Even though it is parasmaipadi, yatra upasargaha nasti, tatra ubhayapaditvam drishyate. Janati ityapi prayogaha asti, janite ityapi prayogaha. Kintu yatra upasargaha vijanati, tatra tu parasmaipadam eva. Okay. So, upasargavashat padavyavastha vyatyayam gachyati, tathaiva arthavisheshadapi padavyavastha vyatyayam gachyati. Prakashanasthe akhyayoscha iti sutram asti. Stha dhatuhu, stha iti anuvartate, shtha gati nivrattav, idvarnaha nasti, atahayamapi parasmaipadi, tishthati, we know that it is compulsorily parasmaipadi. Hintu, gopi krishnaya tishthate, di atmanepare prayogah asti, kaha arthaha tatra, atmanam prakashayati ityarthaha, natu gati nivrattihi. It does not mean to stand, it means she shows herself to Krishna. So, prakashanarthe, vishishya sthadhatoho atmanepaditvam vihitam. So, stheyaha, stheyakhya ityasti. Vivada pada nirneta. When we are in doubt about something, The person to whom we turn for a decision is called Stheya. That is a trustworthy person. Okay. So, Samshaya Karanadishu Tishthate Yaha. So, from the Kirata Arjuni, where Bharavi is talking about Duryodhana, he says, Samshaya Karanadishu Tishthate. He relies on Karana and deciding, clearing his doubts. So, there also we see Atmanepada. It is not because of an Upasarga, but where there is a definite change in meaning. Arthavisheshe Padavyate Habhavati. So, these are the two main major cases where the Pada of a Dhatu, the main Padavyavastha is decided by the five rules. Anudattangita Atmane Padam, Bhava Karmanoho, Svaita Nitakastra Vipraye Kriyaphale, Nichascha and Sheshat Kartari Parasmai Padam. So, these will decide the Padavyavastha for all Dhatus. Kintu, Yatra Kutrapi Padavyateha Drishyate, Upasargavashat, Arthavisheshat, Ubhayohuva. There are some cases where both, in a particular Upasarga, in a particular meaning, it will change its Pada. Okay. So, that is what has been defined in the other 75 sutras. Okay. So, if you look at all these, Ango Yamahanaha, Ang is the Upasarga for Yama and Hanu. So, Atmane Padam Bhavati, Ityasadi. So, to actually understand where there is a Pada, we should study the whole Prakarana from 1312 till 1393. Okay, Luti Chakrapaha. These will completely in all the Pada. Yat Kutra Parasmai Padam Bhavati, Kutra Ubhaya Paditvam, Kutra Atmane Paditvam. So we will know only if we know all the sutras, but we are not going into detail now. Idani Mastu Prakaranasya Ante Nishchayena Pashyamaha, because it should be known. Into Idanim, wherever you find a case, where you find, say, a Dhatu is Parasmaipadi, but you find a Prayoga in Atmanepadi, this is where you should look for in the Ashtadhyayi. So, you look in this Prakarana, you look, say, the Kashika or the Kaumudi for these sutras, then you will see why there is a change. Okay. So, this is about Parasmaipada, Atmanepada and Ubhayapada. So, because Tinganta Prakriyam Hikritya Idaniyam Kriyate, Tatra Upasargan Vayam Na Yojayamaha. Ataha Prayena Rupasiddhihi. So, the Pada does not change the Rupasiddhi. The Rupasiddhi depends the Dhatu and the Pratyayas only. So, for now, we will go with these five sutras. Kutra Parasmaipadam, Kutra Atmanepadam, Kutra Ubhayapadam. Etattu Smartavyameva. Bhava Karmanoho Atmanepadam, Anudattangitaha Atmanepadam, Svaritanitaha Kartrabhipraye Kriyaphale Atmanepadam, Nichascha Kartrabhipraye Kriyaphale Atmanepadam, Sheshat Kartari Parasmaipadam. So there are a few questions, I'll answer them now. I didn't want to take them in between. Okay. So, Pathati ityatra kriyaphalam kartrabhipraye eva. Kimartham patadhatuhu na atmanepadi. As I said, the question of whether it is kartrabhipraya kriyaphala or not comes only if it is an ubhayapadi. Yatra svaritet athava nit athava nijantaha tatraiva saha prashnaha. In other dhatus, the prashna does not arise. Even if you read for yourself, it is still pathati because pathar is not an ubhayapadi. Only if the dhatu is an ubhayapadi, then there is a vyavastha, kartavipraya kriyaphale atmanepadam. So, other dhatus, compulsorily atmanepadas, are compulsorily atmanepadims, whatever the meaning. Okay. So, atraiva vyavastha. So, kintu sa vyavastha api na, it's not very nishkrishta. So, we see, just there are two forms, we can use both. That is how, sayeva artha phalati, ubhayata api prayogaha kartum shakyate itteva. Prachina Granteshu Bhagavad Gita Yamapi Savyavasthana Drishyate Tirchate Syat Deva Tadrishya Maya Dhyanam Nakratam Syat. So that Vyavastha is not very rigid. So Sadri Ubhayapadinam Dhatunam Padadvayapi Prayogaha Shakyate Iteva Phalitarthaha. Atayeva Chintayati Iti Sarvada. One always thinks for oneself. Nijanta. You can also think for others. If somebody else asks you to think for them. So it might be for others. Okay. But as I said, the vyavastha is not at all maintained in usage. Yes?
What is Jesus' verdict on Satyameva Jayate?
Huh?
Satyameva Jayate.
Satyameva Jayate is Arsha. Okay. So Ramayane Mahabharate Vedeshucha Paravyavastha Sarvatha Nasti Chandasi Bahulam Vyatyayas Chandasi Ityeva Uchyate. So in the Vedas, as also in Ramayana, also in Mahabharata, we do not see a very rigid vyavastha of padas. We see usages of parasmaipadis in atmanepadi and so on. It's only in later literature that it has crystallized that some are purely parasmaipadis, some are purely atmanepadis. If you go back to ancient literature, you will not find it very distinct. It is there, but majority, you will find other usages. So even in later cases, Satyameva Jayate, so they are all treated as Arsha Prayogas. So, you don't have this on that. Okay. So, Arsha Prayogaha Bahutra Drishyante, Rishi Vakyeshu. Satra Vishishya Padavyavastha, even though Panini has created so many sutras, so in ancient literature, it's not very crystallized. You do find Vyatyayas very often. Any other questions? The exercise for today. Itsamyaka Varna Nirdesha Purvakam Dhatunam Parasmai Paritvam Atmane Paritvam Ubhaya Paritvam Nirneta. So first find out all the letters which are it. So a revision of what we studied for Itsamya. Sutra Nirdesham Itsamyaka Varna Nirdeshaha Tataha Parasmai Padiva Atmane Padiva Ubhaya Padiva. Is the Dhatu Parasmai Padi Atmane Padi or Ubhaya Padi? Yatha Dupachash Pake Itasti. Tatra du ityasya adib nyutadavaha ityanena itsamya akarasya upadeshaya jananasika ityanena shakarasya halantyam ityanena itsamya tatra akaraha anuda swaritaha. So because it is swaritet, ayam dhatuhu ubhayapadi. So tatha vimshatihi dhatavaha santi tesham padanirnayaha kartavyaha. So before we stop, there's one more thing which I wanted to tell you today. Vyoma Linguistic Lab Samsthaya Nutanahitaya Samasaha Iti Antarjala Samagri Nirmita. So it's an online tool for learning Samasas. Okay, it's a multimedia product. It is now available online, as in it's an online portal which you can access as a login and this. And there is also a CD version which will be released soon. So it covers all the samasas, types, subtypes, everything. With basically very easy for students. It's not in the sutra krama. So sutrani diyante, but not as the main. It's not an explanation through the sutras. It's an explanation of the samasas. All samasas covered in subtypes with lot of examples, and there is audio, video, animations and many things. Okay. Samasa is one of the most difficult topics in Vyakaran, again because it depends on artha and not just the words. Okay, you need to understand to do samasas, but still it's tried to make it easier with that. So it covers all the preliminary concepts of samasas, the karyas. There are special karyas for the purvapada, uttarapada and so on. The entire process of samasa with lots and lots of examples, which is the main feature, with sentence examples and all that. So we have done that through Vyoma Linguistic Labs Foundation, and please go through at least the demo. There is a, if you go to vyomalabs.in, you will find a demo version of it. So I can send you all a link. Okay, to, I think you should, if you have not got it, you will all get a email of it from Vyoma Samskata Pathashala. Just go through the demo and please buy it and tell others who will find it useful. Okay, if you have any feedback, it's welcome, because we are going to work on it for the next 15 days and release it as a CD next. So you can access the web version now. The demo version is also available. It is also available for purchase for a minimal, nominal value. I think it's around 300. Okay, so there are games, there are exercises which you can do yourself to learn it. So personally, I feel it's a very good thing for samasas. Okay. So please try it out and give us the feedback and purchase and spread the word with others who, you know, who are interested in learning Sanskrit. Dhanyavadaha. एनाक्षर समाम्नायम अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. सो कैन आई गिव द लिंक.